अथ नवग्रहमन्त्राः। ॐ मा सत्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सवितारथेन देवो याति भुवनानि पश्यन्नो अग्न्यम् दोतम् मृणीमहे होतारम् विश्ववेदसौ अस्य यज्ञस्य सकृतौ कद्रुद्राय प्रचेतसे मेढुस्तमायतव्यसे ओचेमसन्तमगुम् हृदे आप्यायस्व समेतु ते विश्वतः सोमवृष्णयो भवावाजस्य सङ्गधे अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमि मायसलिलादितक्षत्यैकपदे विपदेशा च दुष्पदे अष्टापदे नवपदे बभुवुषे सहस्र अक्षर परमे व्योवन् अग्निर्मूर्धा दिवः ककुत्पते पृथिव्या अयम् अपागुम् रेतागुंसि जिन्वते शोना पृथिवी भवानुक्षरा निवेशिने इच्छानः सर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसे गामस्वम् पोषयित्र वासनो मृडा तीदृशे उद्भुज्यस्वाग्ने प्रजागुह्येमिष्टा पूर्ते सगम् त्रिदेधामयम् च पुनः कृण्वग्स्त्वा पितरम् विवा नमन्वातागुम् से त्वैतन्तुमेतौ इदम् विष्णुरुजक्रमे त्रेथा निदते पदौ समूढमस्य पागुम् सुरे सहस्रशेरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यधिष्ठद्दशाङ्गुलौ बृहस्पते अतियदर्हो अर्ह आद्युमद्विभाति कृतमज्जनेषु यद्येत यच्छव सत्त प्रजात तदस्मासु द्रविणम् देहि चित्रो इन्द्रमरुत्वह्य पाहि सोमम् यथा स्यार्याते अपि वस्तु तस्य तव प्रणेति तव सोरसर्मन्नापि वासन्ति कवयस्सु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विसेमतः सुरुचो वेन आवह स बुद्ध्रियापुपमा अस्य विष्टा सदस्य यो निवसदस्य विवः शुक्रन्ते अन्यज्जदन्ते अन्यद्विषुरूपे अहने जौरिवासे विश्वाहि मायावसि स्वधावो भद्राते पोषन्निहरातिरस्तु इन्द्राणीमासु नारिषु सुपत्ने महमस्रवो न ह्यस्यापरञ्जनजरसामरते पतिः इन्द्रम्बो विस्पतः स्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ शमग्निरग्निभिस्करस्तन्नस्तपतु सूर्यः शम्बातो वात्परप अपस्रिधः यमाय सोमगुम् सुनुत यमाय जुहुता अविः यमगुम्ह यज्ञो गच्छच्चज्ञदोतो अरङ्कृतः प्रजापतेन त्वदेतान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहमस्तन्नो अस्तु वयगुस्याम पतयोरयेणाम् कया नश्चित्र आभुवतो ते सदा वृधः सका कया षष्टया वृता आयङ्गौ पुष्यरक्कमे दशनम् मातरम् पुनः पितरम् च वयम् सुवः नमो अस्तु सर्पेभ्यो ये के च पृथिवे मनो ये अन्तरिक्षे ये दिवितेभ्यः सर्पेभ्यो नमः केतुम् कृण्वन्न केतवे पेशो मर्या अपेशषे शंषद्विरदायथाः ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् सेना गृद्रा नागुस्वतिर्वना नागुस्सोमः पवित्र मत्येतिरेभन्न सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरवीरम् बृहन्तौ चन्द्रश्चन्द्राभिगृणते इव स्व आदित्याय च सोमाय मङ्गलाय बुधाय च गुरुशुक्रशनिभ्यस्य राहवे केतवे नमः ॐ शान्तिश्चान्तिश्चान्तिः।